सर्वेषां समासचिन्तनवर्गं प्रति स्वागतम्। अव्ययीभावसमासः इति विषयः प्रवर्तमानः अस्ति, स एव विषयः अद्यापि अनुवर्तते। आरम्भे वयम् अष्टाध्यायीसूत्रपाठः इति पुस्तकात् अव्ययीभावसमाससम्बद्धसूत्राणि एकवारं पठेम, तदनन्तरं किञ्चित् अभ्यासं कुर्मः। आरम्भे अत्र राजी भगिनी भवती एकवारं श्रावयतु।
अव्ययीभावः अव्ययं विभक्ति समीप समृद्धि व्यर्थि अर्थाभाव अत्यय असंप्रत शब्द असंप्रति शब्द प्रादुर्भाव पश्चात् यथानुपूर्व यौगपद्य सादृश्य संपत्ति साकल्यांत वचनेषु यथा सादृश्ये यावदवधारणे सुप्रतिना मात्रार्थे अक्षशालाका संख्याः परिणा विभाषा अपपरिबहिरञ्जवः पञ्चम्या आङ् मर्यादाभिविध्योः लक्षणे नाभिप्रति आभिमुख्ये अनुर्यत् समया यस्य छायामः तिष्ठत् गुप्रभुदीनि च पारे मध्ये षष्ठ्या वा संख्यावंश्येन नदीभिश्च अन्यपदार्थे च संज्ञाया।
सम्यक् भगिनि, उत्तमम्। अत्र एतावत्पर्यन्तम् अस्माभिः बहु किमपि अधीतम् आसीत्। अस्माकम् अवगमनं कीदृशम् अस्ति इति अवगन्तुं किञ्चित् झटिति अहं कांश्चन प्रश्नान् पृच्छामि, किञ्चित् पुनरवलोकनं कुर्मः। यदा कदाचित् तादृशं पुनस्मरणं बहु लाभदायकं, तदर्थं वयं किञ्चित् पुनरवलोकनं कुर्मः। तत्र करपत्रं दृष्ट्वा किञ्चित् उत्तरं दातुं प्रयत्नं कुर्वन्तु। गीताञ्जलिभगिनी एकवारं समासप्रसङ्गे तत्र अधिकारसूत्रं किम्?
नमस्ते भगिनि, अधिकारसूत्रं तु अव्ययीभावः इति।
उत्तमम्। अव्ययीभावसमासप्रसङ्गे ज्ञातव्यः मुख्य अंशः, मुख्यविषयः कः?
मुख्यविषय तु सर्वे अव्ययीभावसमास पदानि नपुंसकलिङ्गमेव भवति, अपि च बहवः अर्थाः विकल्पेन नो आप्शन्स् सन्ति, अव्ययं विभक्ति समीप समृद्धि वृद्धि अर्था भाव अत्यय असंप्रति शब्दप्रादुर्भाव पश्चात् अथ अनुपूर्व्य यौगपद्य सादृश्य सम्पत्ति साकल्यान् वचनेषु सूत्रेण तत्तु मुख्यसूत्रम् अस्ति। अपि मुख्य
तेन सूत्रेण अव्ययीभावसमासविधानं भवति। अत्र मुख्यविषयः इति वदामि चेत् एकं वाक्यं वदतु इति वदामि चेत् तत्र किं वक्तव्यम्? अव्ययपदं, विशिष्टम् अव्ययपदं समर्थेन सुबन्तेन सह समस्यते इति तत्र मुख्यविषयः। अनन्तरम् अव्ययीभावसमासे कस्य पदार्थस्य प्राधान्यं वर्तते?
पूर्वपदार्थप्राधान्यम् अस्ति अत्र।
उत्तमम्, उत्तमं भगिनि। राजी भगिनी भवती वदतु, सर्वदा पूर्वपदार्थप्राधान्यम् अस्ति चेत् अव्ययीभावसमासः भवति इति वक्तुं शक्यते वा?
वक्तुं शक्यते।
तत्र उत्तरमस्ति प्रायेण
पूर्वपदस्य प्राधान्यं प्राधान्यम् अस्ति इति वदनेन समासः इति वक्तुं शक्यते।
इत्युक्ते तत्र उत्तरं किं भवति इत्युक्ते सर्वदा अव्ययीभावसमासः भवति इति वक्तुं न शक्यते, प्रायेण साधारणतया 90% तथा भवति, अन्यत्र अपि पूर्वपदार्थप्राधान्यं वर्तते अन्येषु समासेषु अपि। तदर्थमेव साधारणतया प्रायेण इति वक्तव्यं भवति. भवती एव वदतु, अव्ययीभावसमासः केन सूत्रेण अव्ययपदं भवति?
केन सूत्रं? दीर्घसूत्रेण. अव्ययम् एकनिमिषं भगिनि, दीर्घसूत्रेण भवति. अव्ययं विभक्तिसमीपसमृद्धि
भगिनि, अत्र दीर्घसूत्रेण अव्ययीभावसमासविधानं भवति. अत्र अरुणभगिनी वदतु, अत्र केन सूत्रेण अव्ययीभावसमासः अव्ययं भवति? अव्ययीभावश्च. अत्र अरुणभगिनी भवती एव वदतु, यदि अव्ययीभावसमासः अव्ययं भवति चेत् तेन किं प्रयोजनम्?
पुनः वदतु भगिनि.
अव्ययीभावसमासः अव्ययीभावश्च इति सूत्रेण अव्ययपदं भवति इति वयं पठितवन्तः. अव्ययपदं भवति चेत् किं प्रयोजनं?
विभक्तिलोपः भवति. सुपोधातु प्रातिपदिकयोः इति सूत्रेण.
न न न भगिनि, अत्र सुपोधातु
अव्ययापसुपः अव्ययात् आप्सुपः इति सूत्रेण लोपः भवति. ततः पदसंज्ञा अपि भवति.
इत्युक्ते
निर्दिष्टं
तत् त्यजतु. अत्र मम प्रश्नः अस्ति, अव्ययीभावसमासः अव्ययं भवति अव्ययात् आप्सुपः इति सूत्रेण अव्ययं भवति. अव्ययात् आप्सुपः इति सूत्रस्य कार्यं किम्?
न अव्ययीभावात् तत्र अम् आदेशः भवति खलु तत्र.
इत्युक्ते तत्र किं वक्तव्यम् इत्युक्ते, अव्ययात् आप्सुपः इति सूत्रेण अन्तिमसोपाने, साधारणतया अन्तिमसोपाने अव्ययपदस्य अन्ते स्थितस्य प्रातिपदिकस्य अन्ते स्थितस्य सुपः लोपः भवति इति कृत्वा सर्वाणि अव्ययीभावसमासयुक्तानि पदानि अव्ययानि भवन्ति इति विषयः. तदनन्तरं सुमन् भगिनी भवती वदतु, अव्ययीभावसमासः नपुंसकलिङ्गत्वं प्राप्नोति केन सूत्रेण?
अव्ययीभावश्च.
तत् सूत्रं कस्मिन् अध्याये अस्ति?
द्वितीय अध्याये.
उत्तमं,
क्षम्यतां, तत्तु द्वितीय अध्याये. सत्यं, यत् यत्र यत् सूत्रम् अव्ययं कारयति तत्तु प्रथमसोपाने, नपुंसकलिङ्गं कारयति चेत् तत्तु द्वितीय अध्याये.
उत्तमम्. अव्ययीभावसमासः नपुंसकलिङ्गं प्राप्नोति चेत् तत्र नपुंसकलिङ्गविधानेन प्राप्यमानं कार्यं किं? किं कार्यं?
तत्र प्रथमं तु ह्रस्व नपुंसके प्रातिपदिकस्य इति सूत्रस्य प्रसक्तिः भवति. इत्युक्ते इदानीं तु अन्तिम वर्ण दीर्घ स्वर अस्ति चेत् यथा अधिनदी, तत्र अधिनदी इति ह्रस्व भवति. अपि च न
तत् तावत् पर्याप्तम् इत्युक्ते तत्र किञ्चित् एकं लघुवाक्यम् उत्तरं वक्तव्यम्. उत्तमं भगिनि, अत्र उदाहरणानि ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रम् अवगन्तुं भवती एव उक्तवती. उदाहरणम् अधिनदी, अधिशालम्, अधिनौकम् इत्यादीनि पदानि वयं दृष्टवन्तः. उत्तमम्. अपि च अत्र उषा भगिनी भवती वदतु, अव्ययीभावसमासे पूर्वपदम् अव्ययं भवति इति अस्माभिः पठितं. यत् किमपि अव्ययपदं भवितुमर्हति वा, नो चेत् तत्र विशिष्ट अव्ययपदम् इति वक्तव्यं वा?
भगिनि, केन् यु से इट् अगेन्?
अव्ययीभावसमासे पूर्वपदं सर्वदा अव्ययं भवति. कीदृशम् अव्ययपदं भवेत् पूर्वपदम्?
न अव्ययी, न न द सुप् लो द सुप् प्रत्यय गाट् एलीडेड्.
न न भगिनि, अत्र मम प्रश्नः तु अव्ययीभावसमासे यत्र कुत्रापि समस्तपदमस्ति चेत् द्वयोः पदयोः मेलनमेव समासः, तत्र पूर्वपदम् अव्ययं भवेत् अव्ययीभावसमासे. किन्तु यत् किमपि अव्ययपदं भवितुमर्हति वा, नो चेत् तत्र किमपि वैशिष्ट्यम् अस्ति वा पूर्वपदस्य प्रसङ्गे?
पूर्वपदस्य प्रसङ्गे वैशिष्ट्यम् अस्ति. अव्यया तापसुपः इति सूत्रेण पूर्वेण सुप्रत्ययः तिष्ठति. इदानीं घाट् इल्लि अव्यया तापसुपः इति सूत्रेण लोपः भवति.
अत्र इतोपि स्पष्टतया वक्तव्यम्, अरुणा भगिनी वदतु, अत्र यत्किमपि अव्ययपदं भवितुम् अर्हति वा, नो चेत् अत्र
पदनिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति. अत्र अव्ययपदं प्रथमनिर्दिष्टम् अस्ति चेत् तदेव उपसर्जनं पूर्वम् इति सूत्रेण पूर्वपदं भवति.
इत्युक्ते प्रथमानिर्दिष्टं समास उपसर्जनम् उपसर्जनं पूर्वम् इत्याभ्यां सूत्राभ्यां पूर्वनिपातः भवति. किन्तु मम प्रश्नः तु पूर्वपदं कीदृशं पदं भवेत् इति प्रश्नं पृच्छामि चेत् तत्र उत्तरं किं भवति? अरविन्दमहोदय, भवान् वदतु अत्र कीदृशम् अव्ययपदं भवेत्?
अव्ययपदं यत् विभक्तिसमीपसमृद्धिवृद्ध्यर्था भवत्ये सम्प्रति शब्दप्रादुर्भाव ये अर्थाः विधीयन्ते तत्पदम् अव्ययम् अस्ति चेत् तत् एव पूर्वनिपातं भवति.
उत्तमम्. इत्युक्ते तत्र पूर्वपदं कीदृशं पदं भवेत् इत्युक्ते अत्र दीर्घसूत्रमस्ति, अव्ययीभावसमासविधानं भवति अनेन सूत्रेण. तस्मिन् सूत्रे यानि यानि पदानि उक्तानि सन्ति तेषु अर्धेषु वर्तमानं, तेषु अर्धेषु विद्यमानम् अव्ययपदम् एव पूर्वपदं भवितुमर्हति. तत्र दीर्घसूत्रमस्ति, दीर्घसूत्रे षोडशपदानि सन्ति, तेषु अर्धेषु उक्तम् अव्ययपदम्
अदि. अदि इति पदं विभक्ति अर्थे सह सुमर्पदा इट् गेट्स्
आं भगिनि
समर्थेन सह. ओके,
चिन्ता मास्तु. अत्र पूर्वपदं तादृशं पदं भवेत् अपि च इत्युक्ते तत्र षोडशपदानि सन्ति तेषु अर्धेषु विद्यमानम् अव्ययपदं पूर्वपदं भवितुमर्हति इति विषयः एतावत्पर्यन्तं. तदनन्तरम् उत्तरपदं कीदृशं पदं भवेत् इति अपि चिन्तनीयमस्ति. उत्तरपदम् अत्र शर्मिला भगिनी एकवारं वदतु, उत्तरपदम् अजन्तम्, अदन्तम्, अनदन्तं, हलन्तम्. अहं चत्वारि पदानि उक्तवती, तेषाम् अर्थः कः एकवारं विवृणोतु. अजन्तम् इत्युक्ते
अच् वर्णः अवसाने अस्ति चेत् अजन्तम्.
अदन्तम्
अकार अवसाने अस्ति चेत् अदन्तम्.
हलन्तम्
हलवर्णः अवसाने अस्ति चेत् हलन्तम्.
अनदन्तम्
अनदन्तम् अवर्णविहाय अवसाने अस्ति वर्णः अस्ति चेत् अनदन्तम्.
उत्तमम्. इत्युक्ते एतानि पदानि भिन्नानि खलु. उत्तरपदम् एतावत् उत्तरपदम् इत्युक्ते उत्तरपदस्य प्रातिपदिकस्य अन्ते कीदृशवर्णः अस्ति, अच्वर्णः वा, हल्वर्णः वा, ह्रस्वकारः वा. तत्र अदन्तम् इति वदामि चेत् तत्र केन सूत्रेण अवगन्तुं शक्यते भगिनि? अदन्तम् इत्युक्ते किम्? परिभाषा का तत्र? तपरः तत्कालस्य, तपरः तत्कालस्य इति सूत्रेण अदन्तम् इत्युक्ते ह्रस्व अकारान्तम् इति अवगन्तुं शक्नुमः. अनन्तरम् उत्तरपदम् अजन्तम्, अजन्तम् इत्युक्ते अच् अन्ते यस्य तत् अजन्तम् इति वदामः. तत्र उत्तरपदम् अजन्तम् अस्ति अपि च दीर्घ आकारान्तम् अथवा दीर्घ ईकारान्तम् अस्ति चेत् यथा पूर्वमेव अस्माभिः पठितं ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रस्य प्रसक्तिः भवति. अत्र ह्रस्वो नपुंसके प्रातिपदिकस्य इत्यस्मिन् ह्रस्वः इति उक्तमस्ति. कस्य ह्रस्वत्वं तत्रापि एका परिभाषा अस्ति. कस्य ह्रस्वत्वं भवति?
अजन्तम् अस्ति चेत्, अदन्तम् अस्ति चेत् तस्य न अजन्तम् अस्ति चेत् तस्य अन्तिम अचवर्णस्य ह्रस्वं भवति.
भवति, तत्र एका परिभाषा वयं पठितवन्तः. परिभाषां न अत्र अलोन्त्यस्य इति अपि परिभाषासूत्रमेव, किन्तु अत्र अलोन्त्यस्य इत्यस्य प्रसक्तिः नास्ति. अत्र ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रस्य प्रसङ्गे नपुंसकलिङ्गे प्रातिपदिकस्य ह्रस्वत्वं भवति इति एव उक्तमस्ति. किन्तु कस्य ह्रस्वत्वम् इति प्रश्ने सति तत्र एकं परिभाषासूत्रमस्ति. अचश्च अचश्च इति सूत्रेण, तत्र परिभाषासूत्रेण वयम् अवगन्तुं शक्नुमः अचिवर्णानाम् एव ह्रस्वत्वं भवति इति वयम् अवगतवन्तः. तस्मिन् प्रसङ्गे वयं परिभाषासूत्रमपि पठितवन्तः. अपि च तत्र एकम् अन्यत् सूत्रमपि वयं दृष्टवन्तः, ये च इग् ह्रस्वादेशे. किं वदति, वदतु भगिनि एकवारं.
तत्र ए ऐ अवसाने अस्ति चेत् तस्य इकारः इति ह्रस्व भवति. ओ औ अस्ति चेत् तस्य उकारः ह्रस्व भवति.
उत्तमम्. तदर्थम् उदाहरणं, यद्यपि वयं न अस्मिन् करपत्रे न पठितवन्तः, तत्र एच इग् ह्रस्वादेशे इति सूत्रेण अधिगु, तत्र गोशब्दात् अधिगु इति रूपं सिद्ध्यति. तत्र सूत्रमस्ति एच इग् ह्रस्वादेशे इति सूत्रेण तत्र एच् वर्णानां स्थाने इक् वर्णादेशः भवति. एतावता अत्र अदन्तप्रक्रिया किञ्चित् भिन्ना अस्ति. उत्तरपदं हलन्तम् अस्ति चेत् तत्र प्रक्रिया किञ्चित् भिन्ना अस्ति. तत्र उत्तरपदम् अदन्तपदम् अस्ति चेत्, इत्युक्ते ह्रस्वकारान्तपदम् अस्ति चेत्, अव्ययात् आप्सुपः इति सूत्रं प्रबाध्य किं भवति?
न अव्ययीभावात् अतो अतः अम्तु अपञ्चम्या इति सूत्रस्य प्रसक्तिः अस्ति. तेन पञ्चमी विहाय सुग्लुक् न भवति. अतः अम् च अम् आदेशः भवति.
अम् आदेशः भवति. तेन एकम् उदाहरणं वदतु, पञ्चमी विभक्त्यां रूपं वदतु.
अधिगोप अस्ति चेत् तत्र अम् आदेशात् अधिगोपम् इति शब्दः निष्पद्यते. तस्य अधिगोपात् अधिगोपाभ्याम् अधिगोपेभ्यः इति पञ्चमी विभक्ति भवति.
उत्तमम्. अधिगोपात् इत्यस्मिन् प्रसङ्गे वयम् एकम् अन्यत् सूत्रं दृष्टवन्तः. तत्र पञ्चमी विभक्ति रूपं साधयितुं तत्र एकं विशिष्टं सूत्रं वयं दृष्टवन्तः. तानसि नसां
तानसि,
वदतु.
तानसि नसामि
स्याः इति सूत्रं वयं दृष्टवन्तः. अनन्तरम् अत्र यदा अम्भावः भवति तदनन्तरं कीदृशं कार्यं भवति, वदतु.
अमिपूर्वः इति सूत्रस्य प्रसक्तिः अस्ति. अतः सवर्णदीर्घप्रभाते तत्र पूर्वरूपसन्धि भवति, पूर्वरूपादेशः भवति. अतः अधिकोपयोगः अम् अधिकोपां न भवति, अधिकोपम् इति तिष्ठति.
उत्तमं. तदनन्तरं तत्र न अव्ययीभावाद् अतोऽन्त्वपञ्चम्याः इति एकं सूत्रमस्ति. अन्यत् सूत्रम् अपि अस्ति अदन्त अव्ययीभावप्रसङ्गे, तत् किं?
तृतीया सप्तम्योर्बहुलम्. अत्र तृतीया च सप्तमी विभक्ति अत्र विकल्पेन अमादेशः भवति. अतः तृतीया च सप्तमी द्वौ रूपौ स्तः, अधिकोपम् अधिकोपेन, अधिकोपम् अधिकोपे सप्तमी विभक्तौ.
उत्तमम्. उत्तमं भगिनी. अनन्तरम् अत्र विनयमहोदय भवान् वदतु, अत्र एतावत्पर्यन्तम् उत्तरपदम् अदन्तमस्ति चेत् अदन्तप्रक्रिया कीदृशी भवति इति वयं दृष्टवन्तः. उत्तरपदं हलन्तं भवति चेत् किं भवति इत्यपि चिन्तनीयं तत्र. किन्तु वयम् उत्तरपदं हलन्तमस्ति चेत् कीदृशानि कार्याणि भवन्ति तत् सर्वाणि कार्याणि वयं न पठितवन्तः. इतोपि किञ्चित् तत्र अवशिष्टभागः अस्ति. किन्तु उत्तरपदम् अन्नन्तपदमस्ति चेत् कीदृशं कार्यं भवति अन्नन्तपदं? विनयमहोदय वदतु.
उत्तरपदम् अनन्तपदं यदा भवति तर्हि प्रथमतया सूत्रद्वयम् अनश्चः अनन्तः अतः टच् प्रत्ययः आगच्छति. तर्हि द्वयं सूत्रं न तद्धितः भ संज्ञक अङ्गस्य भ संज्ञक व्यवस्था भवति तर्हि टि लोपः भवति.
महोदय अत्र अनश्च सूत्रेण टच् इति समासान्तप्रत्ययः विधीयते किन्तु सर्वेषु लिङ्गेषु भवति वा? अनश्च सूत्रस्य प्रसक्तिः त्रिषु लिङ्गेषु भवति वा नो चेत् तत्र किमपि वैशिष्ट्यम् अस्ति वा?
यदि पुल्लिङ्ग स्त्रीलिङ्ग भवति एव परन्तु अन्यसूत्रं नपुंसकात् अन्यतरस्याम् अपि विकल्पेन भवति.
उत्तमम् उत्तमं महोदय. अनश्च सूत्रेण पुंलिङ्गे स्त्रीलिङ्गे टच् इति समासान्तप्रत्ययः नित्यरूपेण विधीयते किन्तु नपुंसकलिङ्गस् अनन्तशब्दानां कृते एकम् अन्यत् सूत्रमस्ति नपुंसकाद् अन्यतरस्याम् इति सूत्रमस्ति. एकवारम् अनश्च इति सूत्रेण समासान्तप्रत्ययः विधीयते चेत्
नासिद्धिते भस्य ते लोपः. अत्र उदाहरणं यदि अहं वक्तुं शक्नोमि उपराजन् अस्ति. उपराजन् सम्बन्धे अन् टि अस्ति. राजनशब्दः न अन्तः अजादि टच् अपि अस्ति. अजादि टच् अस्ति अतः भसंज्ञक तर्हि अन् लोपः भवति. अन् टि अस्ति अन् लोपः अस्ति. तर्हि वयम् उपराज
अत्र नः तद्धिते इति तत्र सूत्रं पदविच्छेदं कुर्मः चेत् नः तद्धिते इति लिखितमस्ति. अत्र तद्धितप्रत्ययः कः? कथं वक्तुं शक्नुमः टच् इति तद्धितप्रत्ययः इति कथं जानीमः?
कथं तद्धित् प्रत्ययः
इत्युक्ते तत्र
अवशिष्यते परन्तु कथं जानीमः अन्य अहं न जानामि.
इत्युक्ते तत्र उत्तरं किम् इत्युक्ते टच् प्रत्ययः समासान्तप्रत्ययः. समासान्तप्रत्ययाः सर्वे तद्धिताधिकारे सन्ति. तद्धिताधिकारे सन्ति इति कृत्वा टच् प्रत्ययः तद्धितप्रत्ययः. टच् इत्यस्मिन् कीदृशं कार्यं भवति? तत्र केन सूत्रेण केषां केषां वर्णानां लोपः भवति? कथं राजी भगिनी वदतु वदतु.
चकारलोपानन्तरम् आ एव अवशिष्यते. टकारः चुटु इति सूत्रेण लोपः भवति. चकारः अलङ्क्यम् इति सूत्रेण लोपः भवति. तदनन्तरं आ एव अवशिष्यते.
उत्तमम्. इत्युक्ते तत्र किं ज्ञातव्यम् इत्युक्ते तवर्णः इति संज्ञकवर्णः भवति केन सूत्रेण चुटु इति सूत्रेण च वर्णः हलन्त्यम्
इत्यनेन सूत्रेण तस्य लोपः इति सूत्रेण दौ अपि लोपः भवति अकारः एव अवशिष्यते
उत्तमम् एतावत् अत्र विधिसूत्रमस्ति तस्य लोपः तत्र अकारः एव अवशिष्यते तदर्थं किं वक्तुं शक्नुमः टच् इति अजादिप्रत्ययः अजादिप्रत्ययः अत्र नस्तद्धिते इति सूत्रप्रसङ्गे कानिचन निमित्तानि सन्ति तद्धितप्रत्यये परे भसंज्ञक अङ्गस्य टीभागस्य लोपः भवति इति वयं पठितवन्तः अत्र टीसंज्ञा नाम का इति ज्ञातव्यं किं सूत्रं वदति टीसंज्ञायाः प्रसङ्गे अत्र विनयमहोदय भवान् वदतु टीसंज्ञा नाम का किं सूत्रं वदति टीसंज्ञायाः प्रसङ्गे संज्ञासूत्रम् उषा भगिनी वदतु
अचोन्त्यादि इति
उत्तमं तत्र सूत्रे भसंज्ञक अङ्गस्य इति उक्तमस्ति भसंज्ञायाः प्रसङ्गे किं सूत्रं वदति
भसंज्ञायाः यचिभं
यचिभं सूत्रं किं वदति
सुप्रत्ययेषु आदिप्रत्ययेषु सु आदि इन् आल्द प्रत्ययास् यकारादि अच् प्रत्ययस्य दोसु प्रत्ययास् बट् सुट् प्रत्यय विहाय वाट् एवर् प्रत्ययास् देयर् आल् द अङ्गा इस् काल्ड् भ
अत्र गीताञ्जलिभगिनी एकवारम् अत्र करपत्रं दृष्ट्वा एकवारं स्मारयतु यचिभं सूत्रं किं वदति
यचिभं इति भसंज्ञक सूत्रम् अस्ति इति वदति सर्वे सुबन्त प्रत्ययाः सु आरभ्य कप् पर्यन्तम् अपि य वा अच् आरम्भे आदौ अस्ति चेत् ते सर्वे भ संज्ञक अस्ति
अत्र इतोपि स्पष्टतया ज्ञातव्यं शर्मिला भगिनी भवती वदतु यचिभं सूत्रं किं वदति
अत्र पञ्च प्रत्यय सुप्रत्यया प्रथमपञ्च सु औजस् औट् इति पञ्च प्रत्यय तस्य प्रत्याहार सुट् इति अस्ति
भगिनि अत्र प्रथमपञ्च सुप्रत्ययानां नाम का
सुट् प्रत्यय
सर्वनामस्थानसंज्ञा भवति प्रथमपञ्चसुप्रत्ययानां नाम अस्ति सर्वनामस्थानसंज्ञा दीयते केन सूत्रेण दीयते सुडनपुंसकस्य इत्यस्य प्रसक्तिः त्रिषु लिङ्गेषु भवति वा नो चेत् तत्र किमपि वैशिष्ट्यमस्ति वा सर्वनामस्थानसंज्ञा वदतु
नपुंसक विहाय अतः पुल्लिङ्गे स्त्रीलिङ्गे एव तस्य सर्वनामस्थानसंज्ञा इति भवति
उत्तमम् अत्र सूत्रे अनपुंसकस्य इति लिखितमस्ति इति कृत्वा अनेन सूत्रेण केवलं पुंलिङ्गे स्त्रीलिङ्गे एव प्रथमपञ्च सुप्रत्ययानां नाम अस्ति सर्वनामस्थानसंज्ञा किन्तु नपुंसकलिङ्गे न भवति नपुंसकलिङ्गे केन सूत्रेण सर्वनामस्थानसंज्ञा भवति
न जानामि
ही सर्वनामस्थान
उषाभगिनी वदतु
ही सर्वनामस्थान
उत्तमं षी सर्वनामस्थानं षी सर्वनामस्थानम् इत्यनेन नपुंसकलिङ्गे सर्वनामस्थानसंज्ञा कुत्र भवति इत्युक्ते प्रथमाविभक्ति बहुवचनं द्वितीयाविभक्ति बहुवचनं
द्वितीयाविभक्ति बहुवचनं
नपुंसकलिङ्गे प्रथमाविभक्ति बहुवचनं द्वितीयाविभक्ति बहुवचनं सर्वनामस्थानसंज्ञां प्राप्नोति षी सर्वनामस्थानम् इति सूत्रेण अपि च सर्वनामस्थानसंज्ञायाः प्रयोजनं किम् इति अस्माकं कार्यं नास्ति इत्युक्ते तस्मिन् अस्माकम् अवधानं न दातव्यं तस्य प्रसङ्गः अत्र नास्ति केवलं किम् अवगन्तव्यं प्रथमपञ्च सर्वनामस्थानसंज्ञकप्रत्ययान् विहाय इति वदति यचिभं सूत्रं तत्र भासंज्ञायाः प्रसङ्गे वयम् अवगतवन्तः एतावता अत्र नस्तद्धिते इति सूत्रेण किं भवति भगिनि वदतु
तद्धितप्रत्यये परे नकारान्त अङ्गस्य भसंज्ञा भवति तस्य भसंज्ञकस्य टि संज्ञकस्य वर्णाः लोपः भवति लोपः भवति
टि संज्ञकभागस्य लोपः भवति तत्र यचिभं सूत्रेण भसंज्ञा भवति भसंज्ञक अङ्गस्य टिसंज्ञायाः लोपः भवति इत्युक्ते अत्र अङ्गं भासंज्ञकं भवति इति विषयः एतत् सर्वं वयं पठितवन्तः साधारणतया अत्र तच् इति समासान्तप्रत्ययस्य योजनेन कीदृशपरिवर्तनं भवति
अदन्तं भवति
एकवारम् अदन्तं भवति चेत् कीदृशानि कार्याणि भवन्ति
रसो नपुंसकस्य च अम् आदेश भवितुम् अर्हति
एतावता किमर्थं वयं टच् प्रत्ययस्य योजनं कुर्मः इत्युक्ते पूर्वं पदं हलन्तम् अस्ति अधुना तत् पदम् अदन्तं भवति एकवारं पदम् अदन्तं भवति चेत् तदा न अव्ययीभावादतोन्त्वपञ्चम्याः तृतीया सप्तम्योर्बहुलम् इत्याभ्यां सूत्राभ्यां प्रसक्तिः अपि च कार्यं प्राप्तिः अपि च भिन्नानि रूपाणि वयं साधयितुं शक्नुमः एतावत्पर्यन्तम् उत्तरपदं पुंलिङ्गपदम् अथवा स्त्रीलिङ्गपदम् अनन्तपदमस्ति चेत् अनश्च इति सूत्रेण कार्यं भवति उत्तरपदम् अनन्तपदं किन्तु नपुंसकलिङ्गपदमस्ति चेत् नपुंसकाद् अन्यतरस्यां सूत्रेण टच् विधीयते किन्तु विकल्पेन विधीयते इति अवगतवन्तः तदनन्तरम् उत्तरपदं शरदादिगणीयशब्दः अस्ति चेत् अव्ययीभावे शरत्प्रभृतिभ्यः इति सूत्रेण टच् समासान्तप्रत्ययः नित्यरूपेण विधीयते तदर्थम् उदाहरणम् उपशरदम् इति उदाहरणम् अस्मिन् करपत्रे दत्तमस्ति अपि च उत्तरपदं झै प्रत्याहारस्थवर्णः उत्तरपदस्य अन्ते झै प्रत्याहारस्थवर्णः अस्ति चेत् तत्र झयः इति सूत्रेण तच्चित् समासान्तप्रत्ययः विकल्पेन विधीयते अपि च एकम् अन्यत् सूत्रमस्ति नदीपौर्णमास्याग्रहायणीभ्यः इति एकं सूत्रमस्ति तेन सूत्रेण किं कार्यं भवति इति अद्य वयं परिशीलयामः एतावत्पर्यन्तम् अव्ययीभावसमासे पूर्वपदं सूत्रे उक्तेषु अर्थेषु विद्यमानं पूर्वपदम् उत्तरपदं परिशील्य तत्र कार्याणि कर्तव्यानि अपि च सूत्राणि प्रवर्तनीयानि अपि च अत्र एकम् अन्यत् सूत्रमपि वयं पठितवन्तः नलोपः प्रातिपदिकान्तस्य इति एकं सूत्रम् अस्ति तस्य प्रसक्तिः कुत्र भवति सुमन् भगिनी वदतु राजीभगिनी वदतु
प्रातिपदिकसंज्ञपदस्य अन्ते विद्यमाननकारस्य लोपः भवति न लोपः प्रातिपदिकान्तस्य इति सूत्रेण
क्षम्यतां भगिनि बै द टैम् ऐ अन्म्यूटेड् किञ्चित् क्लेशः अस्ति अन्म्यूट् शीघ्रं न कर्तुं शक्तवती
अस्तु, एकम् उदाहरणं स्मारयतु, नलोपः प्रातिपदिकान्तस्य इति सूत्रस्य प्रसक्तिः वयं दृष्टवन्तः, कस्य पदस्य निर्माणप्रसङ्गे?
राजपुरुषः.
राजपुरुषः, तत्रापि राजन् इति तत्र प्रातिपदिकम् अस्ति, किन्तु राजपुरुषः इति पदं तत्पुरुषसमासपदं, राज्ञः पुरुषः
अधिदण्डि.
उत्तमम्, अधिदण्डि इति तत्र इन्नन्तपदमस्ति, इन्नन्तपदमस्ति, तत्र दण्डिन् इति नकारान्तपदमस्ति, तत्र इन्नन्तपदमस्ति इति कृत्वा टच् न विधीयते, केवलं नलोपः प्रातिपदिकान्तस्य इति सूत्रेण अन्ते स्थितस्य नकारस्य लोपः अभवत्, तादृशरीत्या वयम् अधिदण्डि इति रूपं साधितवन्तः. अधुना वयं करपत्रात् अभ्यासान् कुर्मः. प्रथमतया अव्ययीभावसमासप्रसङ्गे तत्र दीर्घसूत्रे एक प्रथमं पदं किम् उक्तमस्ति, अव्ययं विभक्तिसमीप इति तादृशरीत्या दीर्घसूत्रम् अस्ति. तत्र प्रथमं पदं विभक्ति इत्युक्ते विभक्त्यर्थे, इत्युक्ते सप्तमीविभक्त्यर्थे अथवा अधिकरणार्थे, अधि इति अव्ययपदस्य प्रयोगः भवति. अपि च अत्र द्वितीयं पदमस्ति समीप, समीपस्य भावः सामीप्यं, सामीप्यार्थे उप इति अव्ययपदस्य प्रयोगः भवति. तदर्थम् अत्र एकम् उदाहरणं स्थापितमस्ति, उपनदी इति पदमस्ति, तत्र नदी इति ईकारान्तस्त्रीलिङ्गपदमस्ति, तत्र उपनदी इति पदं सम्भवति, अपि च उपनदम् इति पदमपि तत्र प्राप्तुं शक्नुमः. उपनदी इति पदं कथं निष्पन्नं भवति, तत्र प्रक्रिया का, अधिहरि इति पदं वयं साधितवन्तः, तादृशरीत्या एव उपनदी इति पदस्य निष्पादनं भवति. प्रथमतया उपनदी इति पदं कानि कानि सोपानानि सन्ति इति एकवारं परिशील्य तदनन्तरम् उपनदम् इत्यस्य प्रसङ्गे चिन्तनं कुर्मः. अरुणा भगिनी भवती एव वदतु, उपनदी इति पदं स्वीकृत्य सोपानानि वदतु. सोपानानि,
उपनदी अलौकिकविग्रहवाक्यं, नदी योगः नस् योगः उप, तत् समाससंज्ञा भवति प्राकरात् समासः सूत्रेण, विशिष्ट सूत्रेण अव्ययीभावः दीर्घसूत्रमस्ति. अव्ययीभाव विभक्ति समीप समृद्धि वृद्धि अर्थाभावः अत्यय संवृत्ति शब्द प्रादुर्भाव पश्चात् यथा आनुकूल्य आनुपूर्व पूर्व पूर्व योग योगपत्य सादृश्य सम्पति साकल्य अन्त वचनेषु सूत्रेण अव्ययी भावसमासः संज्ञा भवति. तदनन्तरं नदी यवनस् उप अस्ति, उप अत्र अव्ययात् आप्सुपः इति सूत्रेण उप पदस्य सुप्रत्य लोपः भवति, तत् सुपो प्रातिपदिकयोः जनेन, अतः नदी योगः नस् योग उप इत्यस्मिन् समये सुपो प्रातिपदिकयोः सूत्रेण नस् लोपः भवति, नदी उपनदी इति तिष्ठति. उपनदी उत्सङ्गन्तपदं किमर्थम् इति चेत् प्रत्ययलोपे प्रत्ययलक्षणसूत्रेण पदसंज्ञा भवति. तदनन्तरं प्रथमम् अनन्तरम् अव्ययीभाव दीर्घसूत्रेण अव्ययं प्रथमाने प्रथमाविभक्तिः अस्ति, ततः प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जन संज्ञा उपसर्जनं पूर्वम् इति सूत्रेण पूर्वपदं निपाता भवति, निपाता भवति उपनदी इति पदमस्ति। तदनन्तरं अव्ययभावश्च इति सूत्रेण संज्ञा अव्ययभाव इति संज्ञा भवति।
तावत् पर्याप्तं भगिनी। तदनन्तरम् अग्रिमं सोपानम् अरविन्दमहोदय भवान् वदतु अग्रिमं
सोपानम्। अत्र किमर्थं पूर्व पूर्वस्मिन् सोपाने नदी योग न योग उप अस्ति, अनन्तरम् उपनदी पुनः नदी योग उप अस्ति, किमर्थं तत्र परिवर्तनम् अभवत्?
तत्र किञ्चित् मुद्रणदोषः एव
अस्ति, किन्तु प्रथमनिर्दिष्टं समास उपसर्जनं कार्यं यावत् तत् सूत्रं कार्यं न करोति तत् तु परिवर्तनं न भवति खलु? न, जस्ट् वाण्टेड् टु कन्फर्म् दट् अहं किमपि दोषः न कृतवती, दोषं न कृतवती।
न न, तत्र तत्र यावत्पर्यन्तम् अत्र प्रथमानिर्दिष्टं समास उपसर्जनं पूर्वम् इति सूत्रं सूत्रस्य प्रसक्तिः नास्ति तावत्पर्यन्तं पूर्वनिपातः कस्य भवति इति वयम् अवगन्तुं न शक्नुमः, इत्युक्ते अत्र किञ्चित् मुद्रणदोषः अस्ति। तावदेव उपनदी इत्यस्य प्रसङ्गे भवती एव करोतु। अत्र अव्ययीभावसमासः नपुंसकलिङ्गं प्राप्नोति, तस्मात् आरभ्य वदतु।
क्षम्यतां, कुत्र अस्ति नपुंसकलिङ्गं
नपुंसकलिङ्गं प्राप्नोति अव्ययीभावस्य सूत्रेण।
सुप्लिङ्गन्तं पदम् अभवत् खलु, अपि च अव्ययात् अप्सुपः अपि अभवत्। इदानीं तु प्रथमनिर्दिष्टं समास उपसर्जनं करणीयं खलु?
तदभवत्,
अस्तु। इदानीम् उपनदी अव्ययीभावश्च इत्यनेन अव्ययी भावसमासेन निर्मितस्य शब्दम् अव्ययम् इति संज्ञा भवति, उपनदी इत्यस्य अव्ययसंज्ञा भवति। उपनदी अत्र नदी पौर्णमास्य
अत्र किञ्चित् स्पष्टतया अवगन्तव्यम्। इदानीं वयं उपनदी रूपसाधनार्थं प्रयत्नं कुर्वन्तः स्मः, अत्र केवलम् उपनदी इति पदम् अस्ति, तत्र
इदानीं तु ह्रस्व इकार वा? अस्तु, तत्र एतत् सूत्रं न कार्यं करोति। इदानीं तु अग्रे अपि अस्ति वा न जानामि, किन्तु पूर्व अस्ति आसीत्, तत्र ह्रस्वस्य सम्पूर्णसूत्रं न स्मरामि भगिनि।
चिन्ता मास्तु, अत्र अरविन्दमहोदय भवान् वदतु, एतावत्पर्यन्तं वयं किम् अवगतवन्तः इत्युक्ते अव्ययीभावसमासः अव्ययीभावश्च सूत्रेण नपुंसकलिङ्गं प्राप्नोति, तदनन्तरं कीदृशानि कार्याणि भवन्ति?
आं भगिनि, उपनदी इति नपुंसकलिङ्गप्राप्तानन्तरं ह्रस्वनपुंसके प्रातिपदिकस्य सूत्रेण उपनदी अन्तिम दीर्घ इकारस्य ह्रस्वत्वं भवति उपनदी। तदनन्तरं ण्याप्रातिपदिकात् इति प्रातिपदिकसंज्ञा भूत्वा सुपुत्पत्ति भवति स्वौजस् इति दीर्घसूत्रेण। तदानीम् अव्ययादाप् सुपः इति सूत्रेण अव्ययात् सुप्रत्ययस्य लोपः भवति. तदनन्तरम् उपनदी इति समस्तपदं निष्पद्यते.
तत्र अस्य समस्तपदस्य रूपाणि भिन्नासु विभक्तिषु भिद्यन्ते वा न वा?
न, तत् सर्वत्र उपनदी इति एव भवति.
अस्मिन् पदे कुत्र कुत्र वैशिष्ट्यं दृश्यते इत्युक्ते
उपनदी इति उपनदी इति इति इकारान्त पदस्य सर्वत्र उपनदी इति एव भवति. न पञ्चमी एवं तृतीयसप्तमी अपि उपनदी एव तिष्ठति.
इत्युक्ते सर्वासु विभक्तिषु रूपाणि समानानि अधिहरि रूपाणि भवन्ति. अत्र उपनदी इति पदसाधनप्रक्रियायाम् एकमेव सूत्रं विशिष्टं सूत्रम् अस्ति, ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रस्य प्रसक्तिः अस्ति अपि च प्राप्तिः अस्ति. तत्र नदी इति प्रातिपदिकस्य ह्रस्वत्वं भवति इति एव अत्र वैशिष्ट्यम्. एतावता नद्याः समीपम् इति विग्रहवाक्यमस्ति चेत् समस्तपदम् उपनदी इति भवति. अपि च अन्यत् रूपमपि अस्ति उपनदम्. उपनदम् इति पदं कथं साधितम् इति अधुना पश्येम. अत्र विनय महोदय, भवान् आरम्भं करोतु प्रक्रियायां
प्रथमं सोपानम्. उपनदं सम्बन्धे वयं जानीमः यदि न वै भावात् अत् तु पञ्चमयः सूत्र प्रति न गच्छामः तर्हि नपुंसक उपनदं न भवेत्. अतः अत्र अहं पठामि उपनदी ह्रस्व नपुंसक इत्यादि. तर्हि उपनदी अत्र नदी पौर्णमास्य अग्रहाणीयभ्यः इत्येन अवैभावस्य अन्ते नदी इति शब्दात् विकल्पेन तच् इति समासान्तप्रत्ययः भवति. उपयोग नदी योग तच् तच् इति प्रत्यय टकारचकारे इति संज्ञा भवति. अकारः अवशिष्यते येन हलन्तशब्दः अपि अजन्ता भवति. हलन्तशब्दः अजन्ता भूत्वा समासान्तप्रत्ययः समासस्य
अवयवः इत्युक्ते अङ्गम्. अवयवः इत्युक्ते अङ्गं भवति. किञ्चित् महोदय, अत्र वयं पूर्वम् उपनदी इति रूपसाधनप्रक्रियायां तत्र टच् इति समासान्तप्रत्ययः न विधीयते. तत्र उपनदी इत्यस्मिन् पदे ह्रस्वोनपुंसके प्रातिपदिकस्य इत्यस्य कार्यम् अस्ति. यदि तत्र अव्ययीभावसमासप्रसङ्गे उत्तरपदं नदी इति पदमस्ति चेत् टच् इति समासान्तप्रत्ययः विधीयते. केन सूत्रेण? केन सूत्रेण विधीयते? उत्तरपदं नदी इति पदमस्ति चेत् तत्र विशिष्टं कार्यम् अस्ति. भवान् उक्तवान् एव नदी पौ वदतु.
उपनदी ह्रस्वी अस्ति. उपनदी
ह्रस्वैकारः तद् अभवत् इत्युक्ते यस्मिन् पक्षे समासान्तप्रत्ययस्य विधानं न भवति तस्मिन् पक्षे उपनदी इति पदं साधितं. किन्तु उत्तरपदं नदी इति पदमस्ति चेत् अव्ययीभावसमासे विशिष्टसूत्रेण टच् इति समासान्तप्रत्ययस्य विधानं भवति. राजी भगिनी वदतु एकवारं केन सूत्रेण
नदी पौर्णमास्य ग्रहायणीभ्यः इति सूत्रेण अन्ते नदीस्य अव्ययीभावसमासस्य अन्ते नदी इति शब्दात् विकल्पेन टच् इति समासाध्ये प्रत्ययः भवति. उपनदी योगः टच्.
अत्र किम् अवगन्तव्यम् इत्युक्ते नदी पौर्णमास्या ग्रहायणीभ्यः इति सूत्रम् अस्माकं कृते नूतनं सूत्रं. तदर्थं सूत्रं किं वदति इति एकवारं द्रष्टव्यं. तदर्थम् एकवारं पठतु अधोभागे किञ्चित्.
नदी पौर्णमास्या ग्रहायणीभ्यः अव्ययीभावसमासस्य अन्ते नदी पौर्णमासी आग्रहायणी फुल् मून् इन् द मन्त् आफ् आग्रहायणम् इत्येतेषु कश्चन शब्दः विद्यते चेत् तस्मात् विकल्पेन टच् इति समासान्तप्रत्ययः भवति. नदी च पौर्णमासी च आग्रहायणी च तासाम् इतरेतरयोगद्वन्द्वः. नदी पौर्णमास्य ग्रहायण्यस्तेभ्यो नदी पौर्णमास्य मास्या ग्रहायणीभ्यः नदी पौर्णमास्या ग्रहायणीभ्यः पञ्चम्यन्दम् एकपदमिदं सूत्रम्. अव्ययीभावे शरत् प्रबुद्धिभ्यः इत्यस्मात् सूत्रात् अव्ययीभावे इत्यस्य अनुवृत्तिः भवति. नपुंसकान्यतरस्य इत्यस्मात् सूत्रात् अन्यतरस्य इत्यस्य अनुवृत्तिः. राजाः सखिभ्यश्टच् इत्यस्मात् सूत्रात् टच् इत्यस्य अनुवृत्तिः भवति. तद्धिताः समासान्ताः प्रत्ययः परश्च ज्ञाप्रातिपदिकात् इत्येतेषाम् अधिकारः. अनुवृत्तिसहितसूत्रम् अव्ययीभावे ज्ञाप्रातिपदिकेभ्यः नदी पौर्णमास्य ग्रहाणीभ्यः परश्च तद्धितः समासान्तः तस्य प्रत्ययः अन्यतरस्याम्. अव्ययीभावसमासे अन्ते नदी पौर्णमासी आग्रहायणी इति इत्येतेषु कश्चन शब्दः अस्ति चेत् तस्मात् विकल्पेन टच् इति समासनिप्त्यः भवति अन्ते.
उत्तमम्. अत्र त्रीणि पदानि उक्तानि अस्मिन् सूत्रे. नदी एकं पदं, पौर्णमासी आग्रहायणी, एतेषु त्रिषु पदेषु अन्यतमं पदम् उत्तरपदं भवति चेत् नदी पौर्णमास्याग्रहायणीभ्यः इति सूत्रेण
सूत्रेण टच् प्रत्ययः भवति.
अस्मिन् सूत्रे कति पदानि सन्ति?
त्रीणि पदानि.
एकमेव पदम्. अत्र
नदी पौर्णमास्य कथं नदी पौर्णमासी आग्रहायणी त्रीणि पदानि अस्ति किल?
यद्यपि त्रीणि पदानि इव भाति किन्तु अत्र द्वन्द्वसमासः अस्ति. अत्र नदी च पौर्णमासी च आग्रहायणी च तासाम् इत्युक्ते अत्र एकमेव पदमस्ति इत्युक्ते अस्मिन् पदे द्वन्द्वसमासः अस्ति. तस्य इतोपि स्पष्टतया अवगन्तुम् इच्छामश्चेत् इतरेतरे योगद्वन्द्वसमासः अस्ति. यदा वयं द्वन्द्वसमासप्रसङ्गे पठिष्यामः तदा एतत् सर्वम् आयास्यति. नदी च पौर्णमासी च आग्रहायणी च तत्र इतरेतरयोगद्वन्द्वसमासः अस्ति. एकमेव पदमस्ति. अपि च अनुवृत्तिसहितसूत्रं पश्यामश्चेत् बहूनि पदानि तत्र योजितानि सन्ति. इत्युक्ते अव्ययीभावे शरत् प्रभृतिभ्यः
प्रातिपदिकेभ्यः पौर्णमास्य ग्रहायणीभ्यः परश्च तद्धितः समासान्तः तच् प्रत्ययः अन्यतरस्याम्.
उत्तमम्. अत्र अव्ययीभावे शरत् प्रभृतिभ्यः इति सूत्रमस्ति. तत् सूत्रं पूर्वसूत्रं. तत् इति कृत्वा अव्ययीभावे इति पदं तस्मात् सूत्रात् अनुवृत्तिरूपेण आगतः. इत्युक्ते शरदादिगणे यानि यानि पदानि सन्ति तेषु अन्यतमं पदम् उत्तरपदं भवति चेत् टच् विधीयते इति तत् सूत्रं वदति. नपुंसकात् अन्यतरस्यां वयं जानीमः एव. अपि च राजाः सखिभ्यश्टच् तत्र राजा अहन् सखीभिः टच्
इत्युक्ते
इत्युक्ते तत्रापि तेन सूत्रेण टच् इति समासान्तप्रत्ययस्य विधानं भवति. यदि पदं राजा अस्ति चेत् अथवा अहन् अस्ति, अहन् शब्दः वयं जानीमः, सखि शब्दः उत्तरपदम् अस्ति चेत् तत्र राजाः.
वयं पठितवन्तः वा भगिनि?
न पठितवन्तः.
अपि च किञ्चित् पूर्वं भवती नपुंसकलिङ्गे के के प्रत्ययाः सर्वनामस्थानं भवति इति पृष्टवती. तत्र उत्तरं किम् अस्ति तदपि न पठितवन्तः खलु?
इत्युक्ते भगिनी कक्षायाम् उक्तवती शी सर्वनामस्थानं जशशोः शी, एतानि सूत्राणि भगिनी एकवारम् उक्तवती कक्षायां. तदर्थम् अहम् एकवारं तस्य स्मरणं कृतवती. अपि च अत्र आग्रहायणी इति पदमस्ति. तत् पदं कीदृशं पदं, कोऽपि वदतु तस्य अर्थः कः?
डे आफ् द फुल् मून् इन् द मन्थ्.
डे आफ् द
मार्गशीर्षः.
उत्तमम् उत्तमम्. अहमपि दृष्टवती, अतः वदामि. मृगशिरानक्षत्रं आग्रहायणी इत्युक्ते अग्रहायणमासस्य पौर्णमासी. अत्र नदी शब्दवत् पौर्णमासी अपि दीर्घ ईकारान्तपदमस्ति. अपि च आग्रहायणी अपि दीर्घ ईकारान्तपदमस्ति. आग्रहायणी इत्युक्ते अग्रहायणमासस्य पौर्णमासी. तत्र आग्रहायणी इति पदं तद्धितान्तपदम्. आग्रहायणः इत्युक्ते मार्गशीर्षमासः इति अर्थः. एतावता अव्ययीभावसमासस्य उत्तरपदं नदी, पौर्णमासी अथवा आग्रहायणी इत्येतेषु त्रिषु पदेषु एकमस्ति चेत् तदा नदी पौर्णमास्याग्रहायणीभ्यः सूत्रेण टच् विधीयते. टच् अस्ति चेत् एकं रूपं, टच् अभावे अन्यत् रूपम्. इत्युक्ते एतावता अनेन सूत्रेण टच् विकल्पेन विधीयते इति कृत्वा तत्र रूपद्वयं सिध्यति इति विषयः. टच् पक्षे एकं रूपं, टच् अपक्षे अन्यत् रूपम्. अपि च अत्र टच् विधीयते. टच् योजनानन्तरं किञ्चित् इतोपि कार्यम् अस्ति. तत् किम् एकवारं परिशीलनीयं. गीताञ्जलि भगिनी अग्रिमं सूत्रं पठतु. यस्येति च
भसंज्ञकस्य अङ्गस्य अवर्णस्य इ वर्णस्य च ईकारे परे तद्धितप्रत्यये परे च लोपः भवति. इश्च अश्च समाहारद्वन्द्वः. तस्य यस्य, यस्य षष्ठ्यन्तम्, ईति सप्तम्यन्तं च अव्ययपदं त्रिपदमिदं सूत्रम्. भस्य इत्यस्य अधिकारः. धेलोपो कद्रुवा इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः. नस्तद्धिते इत्यस्मात् सूत्रात् तद्धिते इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं भस्य, अङ्गस्य, यस्य च लोपः इति तद्धिते. यस्येति च इति वदति. भसंज्ञकस्य अङ्गस्य यदि अवर्णस्य इ वर्णस्य अथवा ई अस्ति चेत् ईकारे परे, दीर्घ ईकारे परे अथवा तद्धितप्रत्यये परे अस्ति चेत् भसंज्ञकस्य अङ्गस्य लोपः भवति इति.
अत्र इतोपि स्पष्टतया अत्र अस्मिन् प्रसङ्गे उपनदम् इति पद निष्पादनसमये यस्येति च इति सूत्रस्य प्रसक्तिः अस्ति. अत्र निमित्तानि एकवारं पश्यामः. तद्धितप्रत्यये परे इति लिखितमस्ति. अत्र तद्धितप्रत्ययः कः?
त टच् तद्धितप्रत्यय अस्ति.
उत्तमं. भासंज्ञक अङ्गं किम्?
भासंज्ञक अङ्गम् इत्युक्ते उपनदी.
तत्र कीदृशं कार्यं भवति अनेन सूत्रेण?
अनेन सूत्रेण तु भासंज्ञकलोप भवति इत्युक्ते उपनदी.
वदतु भगिनि, उषा भगिनी वदतु.
इकारस्य लोपः भवति.
इकार उपनदी अस्ति. धन्यवाद, धन्यवाद भगिनी. उपनदी अन्ते ह्रस्व इकार भवति. तत्
न न, अत्र ह्रस्व इकारः न भवति. उपनदी इत्यस्मिन् तत्र अन्तिमवर्णः दीर्घ ईकारः. अनेन सूत्रेण तस्य लोपः भवति. ईकारस्य लोपः भूत्वा उपनद्. ईकारस्य लोपः भवति. पुनः अत्र इतोपि अत्र किं ज्ञातव्यम् इत्युक्ते इश्च अश्च अत्र समाहारद्वन्द्वसमासः अस्ति. इत्युक्ते ईवर्णस्य अथवा आवर्णस्य इति अर्थः अस्ति. तत्र यण्सन्धिः भवति. इकार अकारयोः मेलनेन किं भवति? यकारः आयाति. तदेव अत्र यस्य इति या शब्दस्य या इति पदमस्ति तस्य षष्ट्यन्तं रूपं यस्य. भस्य अङ्गस्य यस्य लोपः ईकारे परे अपि च तद्धितप्रत्यये परे. ईति इति सप्तम्यन्तं रूपम् अस्ति. तद्धिते इति अपि सप्तम्यन्तं रूपम् अस्ति. तत्र पुनः अस्माकं प्रक्रियायां कीदृशं कार्यं भवति अनेन सूत्रेण इति पुनः एकवारं परिशीलयामः. उपरि गत्वा करपत्रे यस्य इति च सूत्रं किं वदति इति एकवारं पुनः परिशीलयामः. उषा भगिनी भवती पठतु.
ओके भगिनि. उपनदी योगः यचिबम् इत्यनेन उपनदी इत्यस्य भसंज्ञा भवति. टच् इति अजादिप्रत्यये परे. यस्य इति च इत्यनेन भसंज्ञकस्य अङ्गस्य अवर्णस्य ईवर्णस्य च ईकारे परे तद्धितप्रत्यये परे च लोपः भवति. उपनदी इत्यस्य ईकारस्य लोपः भवति. अत्र उपनद् योगः अ उपनद इति भवति.
इत्युक्ते एतावत् तत्र उपनद् इति उपनदी इति वदामश्चेत् उपनद् योगः ई. इत्युक्ते तत्र दी इति वदामश्चेत् तत्र वर्णद्वयमस्ति. दकारः अस्ति, ईकारः अस्ति. यस्येति च इति सूत्रेण दीर्घ ईकारस्य लोपः भूत्वा उपनद् इति रूपं सिद्ध्यति. टच् इत्यस्मात् अकारः अवशिष्यते. अधुना वर्णमेलनेन उपनद इति अदन्तम् अङ्गं सिद्ध्यति. अधुना कार्यं यथावत् पूर्वम्. अधुना कीदृशं कार्यं भवति? पठतु.
उपनद इदानीं लिङ्गस्य निर्णयः.
पुनः वदतु.
अत्र
लोपः कथं भवति?
अत्र उपनदी योगः टच् इति वदामश्चेत् टच् इत्यस्मात् अकारः एव अवशिष्यते. अत्र उपनदी इति रूपम् अस्ति. अत्र यचिभम् इति सूत्रेण उपनदी इत्यस्मिन् तत् भसंज्ञक अङ्गं भवति. तदनन्तरं निमित्तमस्ति टच् इति तद्धितप्रत्ययः निमित्तमस्ति. टच् इति प्रत्ययः अजादिप्रत्ययः. अनुबन्धलोपानन्तरं तत्र अकारः एव अवशिष्यते. अजादिप्रत्यये परे भासंज्ञक अङ्गस्य आवर्णस्य ईवर्णस्य लोपः भवति यस्येति च इति सूत्रेण. इति कृत्वा अत्र कीदृशं कार्यं भवति? उपनदी इत्यस्मिन् अन्ते स्थितस्य दीर्घ ईकारस्य लोपः भूत्वा उपनद्.
इदानीम् अवर्णस्य ई वर्णस्य इत्युक्ते सर्वाणि अवर्णानि, क्षम्यतां, सर्वे अवर्णाः ई वर्णाः. ह्रस्व अ ह्रस्व इ इति नास्ति.
उत्तमम्. उत्तम उत्तमः प्रश्नः. इत्युक्ते अत्र अवर्णस्य इति वदामश्चेत् यदि अदन्तम् इति वदामश्चेत् तत्र तपरस्तत्कालस्य इत्यनेन केवलं ह्रस्वकारः इति स्वीकर्तव्यम्. अत्र तु अवर्णः इति उक्तम् अस्ति इति कृत्वा सर्वे अकाराः. इत्युक्ते अष्टादश
अकाराः
सर्वेषाम् अकाराणां ग्रहणं भवति इति ज्ञातव्यं. तत्र दीर्घ ईकारस्य लोपः भूत्वा उपनद्योगः अ उपनद इति अदन्तमङ्गम्. उषा भगिनी वदतु.
उपनद लिङ्गस्य निर्णयः भवति. अव्ययी भावश्च इत्यनेन अव्ययी भावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम्. अतः उपनदी इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम्. उपनद इति प्रातिपदिकस्य अव्ययसंज्ञा भवति, अव्ययसंज्ञा अस्ति. अधुना सुप्रत्ययस्य उत्पत्तिः भवति ञ्या प्रातिपदिकात्. सुऔज समौचष्टाभ्यां ङेभ्यां व्यस् न्यसुभ्यां व्यस् नसोसां ङियो सुप् इत्याभ्यां सूत्राभ्यां सुप् उत्पत्तिः भवति. उपनदयोगः सु अत्र अव्ययातापसुपः इति सूत्रेण प्राप्यमानः सुप् लुक् न अव्ययीभावात् अथोम्त्वपञ्चम्याः इति सूत्रेण विधीयते निषिध्यते. न अव्ययीभावात् अथोम्त्वपञ्चम्याः इति सूत्रेण अदन्त अव्ययीभावात् अङ्गात् सुप्रत्ययस्य लुक् न भवति, अपि तु विभक्तेः स्थाने अम् आदेशः भवति, अम् आदेशः विधीयते. परन्तु पञ्चमी विभक्तिं विहाय पञ्चमी विभक्तौ अम् आदेशः न भवति. तत्र यथा सामान्यं सुप्रक्रिया भूत्वा रूपं भवति उपनदात्. अपरासु विभक्तिषु सुप् लुक् न भवति, अपि तु सुपः स्थाने अम् आदेशः भवति. अव्ययात् आप्सुपः इति सूत्रेण प्राप्यमानः सुप् लुक् न अव्ययी भावात् अथोम्तपञ्चम्याः इति सूत्रेण सुप् लुक् निषिध्यते. न अव्ययी भावात् अथोम्तपञ्चम्याः इति सूत्रेण अतन्त अव्ययी भावात् अङ्गात् सुप्रत्ययस्य लुक् न भवति. सुप्रत्ययस्थाने सुप्रत्ययस्थाने अम् आदेशः भवति. पञ्चमी विभक्तिं विहाय सर्वासु विभक्तिषु स्थानेषु अम् आदेशः भवति.
एतत् सर्वं परिचितमेव. अग्रिमं सोपानम् अन्तिमसोपानं
अमीपूर्वः इति सूत्रेण अम् सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकपूर्वरूप आदेशः स्यात्. सो अ योगः अम् वुड् बि जस्ट् उपन् अ उपनदम् वुड् बि सिद्ध्यति. तृतीया सप्तम्यो बहुळम् इति सूत्रेण अदन्त अव्ययी भावात् परे तृतीया सप्तम्यो स्थाने अम् आदेशः विकल्पेन भवति.
उत्तमम्. अत्र उपनदम् इति अत्र टच् समासान्तप्रत्ययस्य विधानेन उपनदम् इति रूपं साधितमस्ति. किन्तु तृतीया सप्तम्योर्बहुलम् इति सूत्रेण तृतीया विभक्तौ सप्तमी विभक्तौ रूपद्वयं, किन्तु पञ्चमी विभक्त्याम् एकमेव रूपमस्ति, अमादेशः न भवति. अत्र रूपाणि पठतु एकवारं.
प्रथमा विभक्ति उपनदम् उपनदम् उपनदम्. द्वितीया विभक्ति उपनदम् उपनदम् उपनदम्. तृतीया उपनदम् उपनदेन उपनदम् उपनद्भ्याम् उपनदम् उपनद् उपनदैः. चतुर्थी विभक्ति उपनदम् उपनदम् उपनदम्. पञ्चमी विभक्ति उपनदात् उपनदात् नदाभ्याम् उपनदा नतेभ्यः. षष्ठी विभक्ति उपनदम् उपनदम् उपनदम्. सप्तमी विभक्ति उपनदम् उपनदे द्वयोः रूपम् उपनदम् उपनदयोः उपनदम् उपनदेषु सम्बोधने उपनदम् उपनदम् उपनदम्.
उत्तमं भगिनी. अद्य एकं नूतनं सूत्रम् अस्माभिः पठितम्. अत्र नदीपौर्णमास्या ग्रहायणीभ्यः इति सूत्रं वयं पठितवन्तः. तेन उपनदी एकं रूपं टच् न विधीयते चेत् उपनदी, टच् विधीयते चेत् उपनदम् इति रूपं साधितमस्ति. किन्तु तस्मिन् सूत्रे पदद्वयम् इतोपि अस्ति, पौर्णमासी इति अस्ति, तत् पदं स्वीकृत्य समस्तपदानि कीदृशानि पदानि सिद्ध्यन्ति इति एकवारं पश्येम. अत्र राजी भगिनी, पौर्णमास्याः समीपम् इति विग्रहवाक्यमस्ति चेत् रूपाणि कानि?
पौर्णमासे योगः अङ्गस् योगः उप समासज्ञा भवति प्राक् खण्डः समासः इति सूत्रेण, तदनन्तरम् अव्ययीभावः इति सूत्रेण समासपदस्य अव्ययीभावसंज्ञा समाससंज्ञा भवति. तदनन्तरम् अव्ययं विभक्ति समीप समृद्धि विरुद्धि अर्थाभाव अत्यय असम्प्रति
शब्द तत्सर्वम् अस्माभिः ज्ञातमेव, केवलं रूपाणि वदतु.
रूपाणि अस्तु. उपपौर्णमासम् 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 द्वितीया उपपौर्णमासम् 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 तृतीया उपपौर्णमासम् उपपौर्णमासेन उपपौर्णमासम् उपपौर्णमासाभ्याम् उपपौर्णमासम् उपपौर्णमासैः चतुर्थी उपपौर्णमासम् 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 पञ्चमी उपपौर्णमासात् उपपौर्णमासाभ्याम् उपपौर्णमासेभ्यः षष्ठी उपपौर्णमासम् 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 सप्तमी उपपौर्णमासम् उपपौर्णमासे उपपौर्णमासम् उपपौर्णमासयोः उपपौर्णमासम् उपपौर्णमासेषु सम्बोधने उपपौर्णमासम् उपपौर्णमासम् उपपौर्णमासम्
उत्तमम्. इत्युक्ते अत्र टच् इति समासान्तप्रत्ययस्य विधानं भवति चेदेव उपपौर्णमासम् इति रूपं सिद्ध्यति, नो चेत् समासान्तप्रत्ययस्य विधानं न भवति चेत् साधारणम् इत्युक्ते औत्सर्गिकसूत्राणां साहाय्येन इत्युक्ते सामान्यसूत्राणां साहाय्येन वयं समस्तपदनिर्माणं कुर्मः चेत् तदा केवलं वदतु
कीदृशमासि भवति.
उत्तमम्. उपपौर्णमासि इति रूपं भवति, सर्वासु विभक्तिषु एकमेव रूपं सिद्ध्यति.
पौर्णमासि
उपपौर्णमासं पौर्णमास्याः समीपम् इति अर्थः. पौर्णमास्याः समीपम् इति विषयः. उत्तमम्. अनन्तरं शर्मिला भगिनी एकवारं रूपाणि श्रावयतु. आग्रहायण्याः समीपम्
अस्तु भगिनि. टच् प्रत्यय विधानं नास्ति चेत् उप आग्रहायणि सर्वासु विभक्तिषु त्रिषु वचनेषु भवति. टच् प्रत्यय विधानेन उप आग्रहायणम् इति भवति. तत्र प्रथमा द्वितीया चतुर्थी षष्ठी सम्बोधने त्रिषु वचनेषु उप आग्रहायणम् इति भवति. तृतीया विभक्ति उप आग्रहायणम् उप आग्रहायणेन उप आग्रहायणम् उप आग्रहायणाभ्याम् उप आग्रहायणम् उप आग्रहायणैः भवति. पञ्चमी विभक्ति उप आग्रहायणात् उप आग्रहायणाभ्याम्.
भगिनी अत्र उपयोगः आग्रहायणि इति वदामश्चेत् सवर्णदीर्घसन्धिं कृत्वा उपाग्रहायणि तत्र पृथक्तया मा वदतु, उप आग्रहायणी इति मा वदतु, सन्धिं कृत्वा वदतु.
उपाग्रहायणात् उपाग्रहायणाभ्याम् उपाग्रहायणैः इति तृतीया विभक्तौ. पञ्चमी विभक्तौ उपाग्रहायणात् उपाग्रहायणाभ्याम् उपाग्रहायणेभ्यः. सप्तमी विभक्तौ उप आग्रहायणे उपाग्रहायणयोः उपाग्रहायणेषु भवति.
उत्तमम्. अत्र यद्यपि अस्मिन् पदे उपाग्रहायणं तस्मिन् पदे यद्यपि रेफः निमित्तम् अस्ति किन्तु तत्र बाधकवर्णाः सन्ति इति कृत्वा णत्वं न भवति. णकारः एव बाधकवर्णः. टवर्गीयव्यञ्जनमस्ति इति कृत्वा तृतीयाविभक्ति एकवचने णत्वं भवितुम् अर्हति किन्तु बाधकवर्णः अस्ति इति कृत्वा तत्र णत्वं न दृश्यते. एतावत् एकवारं वदतु उपाग्रहायणम् इत्युक्ते किम्?
आग्रहायणे आग्रहायणमास पूर्णमासस्य समीपम्
आग्रहायण्याः समीपम् उपाग्रहायणं. किन्तु आग्रहायणि इत्युक्ते
आग्रहायणमासस्य पूर्णमासे.
उत्तमम्. अग्रहायणी तत्र ह्रस्व अकारः अस्ति किन्तु इदं पदं तद्धितपदमस्ति इति कृत्वा आग्रहायणी इति अस्ति. इत्युक्ते अग्रहायण्याः पौर्णमासी इति वक्तव्यम्. अद्य वयम् एकं नूतनं सूत्रं ज्ञातवन्तः, नदीपौर्णमास्याग्रहायणीभ्यः इति एकं सूत्रं दृष्टवन्तः. तेन सूत्रेण तच्चित् समासान्तप्रत्ययः विधीयते, विकल्पेन विधीयते. तदर्थमेव रूपद्वयं द्रष्टुं शक्नुमः. अपि च तस्मिन्नेव प्रसङ्गे एकम् अन्यत् सूत्रं यस्येति च इति सूत्रस्य प्रसक्तिः अपि अस्ति. अस्मिन् करपत्रे अन्यानि उदाहरणानि अपि सन्ति, तेषां चिन्तनम् अग्रिमेषु वर्गेषु भविष्यति. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादः.
धन्यवादः भगिनि.
धन्यवादः
भगिनि.
धन्यवादः भगिनि.